एषा रेडियो नेपालः। सम्प्रति समाचारः श्रूयन्ताम्। प्रवाचकः उपेन्द्र दाहालः। सर्वकारेण नेपाल राष्ट्रकोषस्य अष्टादशे अधिशासक पदे अर्थविद डाक्टर विश्वनाथ पौडेलः नियुक्तोऽस्ति। बालवाटारावर्तिनी प्रधानमन्त्री निवासे ह्यः सायम् उपविष्टेन मन्त्रिपरिषदः उपवेशेन पौडेलः अधिशासक पदे नियुक्तोऽस्तीति सर्वकारस्य प्रवक्ता संचार सूचना प्रविधि मन्त्री च पृथ्वी सुब्बा गुरूङ असूचयत। उपप्रधानार्थमन्त्रिणः विष्णुप्रसाद पौडेलस्य नेतृत्वस्य परामर्श समित्या विहित परामर्शनेषु त्रिषु जनेषु डाक्टर विश्वनाथ पौडेलम् अधिशासक पदे नियोक्तुम् निर्णीतमस्तीति संचार मन्त्री गुरूङ असूचयत। परामर्श समित्या डाक्टर विश्वनाथ पौडेलः नेपाल राष्ट्र कोषस्य निमित्ताधिशासकः नीलम ढुङ्गाना, पूर्व सचिवः डाक्टर दिनेश भट्टराई चेते तेषाम् त्रयाणाम् जनानाम् नामानि परामृष्टानि आसन्। तेषु डाक्टर पौडेलम् अधिशासक पदे नियोक्तुम् निर्णीतमस्तीति मन्त्री गुरूङ असूचयत। प्रतिनिधि सभाया ह्यस्तनोपवेशेन भूमि सम्बद्धान् कांश्चित नेपालादि नियमान् संशोधयितुम् निर्मितम् एतद् विक्रम वर्षीयम् विधेयकम् आधृत्य विचार्यतामिति निगद्य प्रस्तुतः प्रस्तावः स्वीकृतोऽस्ति। सभायाम् भूमि व्यवस्था सहकारी विपन्नता निवारण मन्त्रिणा बलराम अधिकारिणा प्रस्तुतः प्रस्तावः सभया सर्वसम्मत्या स्वीकृतोऽस्ति। तत्पूर्वं सभायाः प्रथमोपवेशे गणपूरक संख्याया अभावे सति उपवेशः पञ्चदश कलोत्तरम् यावद् स्थगितीकृतः आसीत्। सभामुखेन देवराज घिमिरे विदेन विधेयकस्य निर्णयार्थं प्रस्तुतेः क्रमे प्रमुख प्रतिपक्षीदलस्य नेकपा माओवादी केन्द्रस्य प्रमुख सचेतक पदीयेन हितराज पाण्डे विदेन गणपूरक संख्यायाः अपूर्णतायाः प्रश्नस्य उद्भावनानन्तरं सभामुखेन घिमिरे विदेन पञ्चदश कलोत्तरम् यावत् सभा स्थगितीकृता आसीत्। तत्पूर्वं विधेयकमाधृत्य विहिते विमर्शने सांसदाः नेपाले भूमि सम्बद्धाम् समस्याम् समाधातुम् सर्वेषाम् भूमिहीनानाम् जनानाम् कृते भूमेः सुनिश्चयनत्वेन विधेयकम् अग्रे सारणीयम् इत्यत्र बलम् दत्तवन्तः। सभामुखः देवराज घिमिरे भूमि सम्बद्धान् कांश्चित नेपालाधिनियमान् संशोधयितुम् निर्मितम् एतद् विक्रमवर्षीयम् विधेयकम् आधृत्य संशोधन प्रस्तावम् प्रस्तोतुम् इच्छुकैः सांसदैः संघीय संसद सचिवालयस्य विधेयक शाखायाम् संशोधनम् पञ्जीकर्तुम् शक्यते इति असूचयत। उपवेशे पूर्वाधार विकास समितेः सभापतिः दीपक बहादुर सिंह समितेः गत विक्रम वर्षीयम् वार्षिक प्रतिवेदनम् प्रास्तौत। तत्पूर्वं सांसदाः सामयिक विषयेषु सर्वकारस्य ध्यानाकर्षणम् विहितवन्तः आसन्। प्रतिनिधिसभायाः अपरोपवेशः सेवा ज्येष्ठ मासस्य त्रयोदशे दिवसे प्रातः एकादशवादने वस्ता। प्रधानमन्त्रिणा त्रिभुवन विश्वविद्यालयस्य कुलपतिना च केपी शर्मा ओलिना त्रिभुवन विश्वविद्यालयस्य रिक्ते उपकुलपतिपदे नियुक्त्यर्थं शिक्षा विज्ञान प्रविधि मन्त्रिणः रघुजी पन्तस्य संयोजकत्वे त्रिसदस्यात्मिका परामर्श समितिः संघटितास्ति। ह्य संघटितायाम् समितौ राष्ट्रिय योजनायोगस्य सदस्य गीता कुमारी पौड्यालः शिक्षा विज्ञान प्रविधि मन्त्रालयस्य सचिव डाक्टर दीपक काफले च स्तः इति प्रधानमन्त्री मन्त्रिपरिषद कार्यालयेन ज्ञापितम् वर्तते। कुलपतिः प्रधानमन्त्री च ओली विश्वविद्यालयस्य उपकुलपतिना प्राध्यापकेन डाक्टर केशरजंग बरालेन प्रदत्तम् त्यागपत्रम् गत चैत्र मासस्य अष्टाविंशे दिवसे स्वीकृत्य शिक्षाध्यक्षाय प्राध्यापकाय डाक्टर खड्गकेशी इत्यस्मै मासत्रयस्य कृते गत वैशाख मासस्य द्वितीय दिवसे उपकुलपति पदस्य दायित्वम् निर्धारितवान् आसीत्। संचार सूचना प्रविधि मन्त्री पृथ्वी सुब्बा गुरूङ गदति सांविधानिक परिषदः उपवेशः अनिर्णयनस्य परिदौ न पातनीयः। राष्ट्रिय सभा अन्तर्गताया विधायन व्यवस्थापन समिते ह्यस्तनोपवेशे सांवैधानिक परिषद कामकर्तव्याधिकार कार्यविधि सम्बद्धस्य 67-2000 विक्रम वर्षीयाधिनियमस्य संशोधनाय निर्मितं विधेयकम् आश्रित्य विहितस्य विमर्शनस्य क्रमे मन्त्री गुरुङ नियमितरूपेण उपवेशस्य उपवेशनस्य अभावे सति नियुक्ति प्रक्रियायां विलम्बनम् जायमानम् अस्तीति चिन्तां प्राकटयत। मन्त्री गुरुङ परिषदा यथासम्भवम् सर्वसम्मत्या परामर्शनस्य वातावरणम् स्रष्टव्यम्, प्रमुख प्रतिपक्षेण नियमेन उपवेश्य उपस्थातव्यम्, राज्यस्य कार्याणि प्रभावकारिणि विधातुं सर्वैः एकीभूय कार्ये प्रवर्तनीयम् इत्यत्र च बलं प्रादात्। नवत्युत्तरैकोनविंशति शततम विक्रम वर्षस्य भूकम्पनेन भग्नस्य भक्तपुर नगरपालिकाया चतुर्थवडा क्षेत्रस्य गहिती वर्तिनः लक्ष्मी नृसिंह मन्दिरस्य पुनर्निर्माणस्य कार्यम् सम्पन्नमस्ति। दीर्घकालिकानुसन्धानस्य पश्चात् प्यागोडा शैल्याम् निर्मितस्य तलत्रयुतस्य लक्ष्मी नृसिंह मन्दिरस्य नेपाल मजदूर किसान पार्टीति दलस्य अध्यक्ष नारायणमान विजुक्षे पूर्वे द्युः उद्घाटनम् अकरोत्। 67-2000 विक्रम वर्षे मन्दिरस्य पुनर्निर्माण कार्यम् प्रारब्धमासीत्। भक्तपुर नगरपालिकाया प्रमुख सुनील प्रजापति मल्लकालिका मौलिक शैल्यामेव मन्दिरस्य पुनर्निर्माण कार्यम् सम्पन्नमस्तीति असूचयत। विश्वस्य सर्वोच्चस्य सगरमाथा शिखरस्य आरोहणम् विहितवताम् आरोहिणाम् प्रथमम् अन्तर्राष्ट्रियम् एभरेस्ट समिटर समिट इति नामाख्यम् सम्मेलनम् नेपाले आयोक्ष्यते। विश्वस्य पर्वतारोहिणा एकस्मिन् एव स्थाने एकीकृत्य तेषाम् अनुभवस्य परस्परम् आदान प्रदानाय साहसिक पर्यटनम् प्रवर्धयितुम् च एभरेस्ट एलायन्स नेपाल इति संस्थया अस्यैव ज्येष्ठमासस्य त्रयोदशे दिवसे सम्मेलनमेतद् आयोक्ष्यते इति एभरेस्ट एलायन्स नेपाल इति संस्थाया अध्यक्ष सुदर्शन नेपालः अज्ञापयत्। सम्मेलने भागम् ग्रहीतुम् सम्प्रति 16 देशानाम् 77-100 आरोहिभिः स्वनाम पञ्जीकारितम् अस्ति। सम्मेलने सगरमाथा शिखरस्य सफलतापूर्वकम् आरोहणम् विहितवताम् विश्वस्य 500 आरोहिणाम् सहभागिता भविष्यतीति आयोजकेन ज्ञापितम् वर्तते। शङ्खुवासभा जनपदस्य मकालु ग्रामपालिकायाः द्वितीयवडा क्षेत्रस्य एकस्यैव परिवारस्य षड्भिः जनै मकालु हिमालयस्य आरोहणम् विहितम् वर्तते। मकालु ग्रामपालिकायाः द्वितीयवडा क्षेत्रस्य चतुर्भिः भ्रातृभिः एकया भगिन्या एकया पुत्र्या च विश्वस्य पञ्चमोच्च मकालु हिमालयस्य आरोहणम् विहितम् अस्ति। हिमालयस्य उच्चैस्त्वम् 85.7 च मीटरमितम् वर्तते। विहितारोहणेषु जनेषु ङीमा ओङजुङ शेर्पाभिदस्य मुक्कुट ङीमा दोर्ची शेर्पा आङडी शेर्पा पुदुम्बे शेर्पा पासाङ शेर्पा एनिमा शेर्पा च पारिवारिक सदस्याः सन्ति। आरोही दलस्य सदस्यश्च मुक्कुट लगाक्पा शेर्पा असूचयत। सर्लाई जनपदे मोटरसाइकल यानद्वयम् परस्परम् संघटितम् सत् जनद्वयम् मृतमस्ति। क्षेत्रीय मार्गखण्डस्य अन्तर्गतम् सर्लाही जनपदस्य बागमती नगरपालिकायाः चतुर्थवडा क्षेत्रस्य जीरायत स्थाने मोटरसाइकल यानद्वयम् परस्परम् संघटितम् सद् रौतड जनपदस्य तात्कालिक विशुन पूर्वा ग्रामपालिकायाः 33 ज्ञानेन्द्र शाह सोनार काष्ठमण्डपस्य 33 विवेक मानन्धर च मृताविति प्रहरिणा ज्ञापितमस्ति। कास्की जनपदे भूकम्पनम् दुरापन्नमस्ति। ह्यदिवा 69:00 कास्की जनपदस्य सिनुवा समीपस्थम् क्षेत्रम् केन्द्रबिन्दुम् विदाय 17.4 म्याग्निच्युट परिमाणस्य भूकम्पनम् दुरापन्नमस्तीति भूकम्प मापनानुसन्धान केन्द्रेण ज्ञापितम् वर्तते।